ब्रह्ममस्यमस्तमम् ज्येष्ठदारुम् ब्रह्मणाम् ब्रह्मणस्पदानश्रृण्वन्नो जगस्येदसादनम् ॐ महागणपतये नमः भद्रम् गर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गे सुष्ठुवागंसस्तनोभिः विषेम देवहिदैयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो हरिष्टनेभिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ अथ गणेशाथर्वशीर्षं व्याख्यास्यामः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धत्तासि त्वमेव केवलम् भर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् कृतम् भस्मि सत्यम् भस्मि अवत्वम् माम् अवभक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवालोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोत्थात्तात् अवाधरात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्विति योऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् तत्त्वो जायते सर्वम् जगदिदम् तत्तस्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो विलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वमवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्म भूर्भुवस्वरो गणनादीम् पूर्वमुच्चार्यवन्नादीम् तदनन्तरम् मनस्वारः परतलः अर्धेन्दुरसितम् तारेण रुद्धम् एतत्तममनस्वरूपम् जकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगुन्धिला सन्धिः सैषा गणेश विद्या गणगऋषिः विसृद्गायत्री छन्दः श्रीमहागणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् जमरदम् हस्ते विप्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तपाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादो प्रकृतेः पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपदये नमो गणपदये नमः प्रमथपदये नमस्ते अस्तु लम्बोदराय गदन्ताय विघ्नविनाशिने श्रीमन्ताय श्रीवरदमूर्तये नमो नमः एतत् सर्वशेषयोधीते स ब्रह्मभूयाय कल्पते स सर्वतः सुखमेधते स सर्वविघ्नये न बाध्यते स पञ्चमहापापात्ममुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविद्धो भवति धर्मार्थकाममोक्षम् च विन्दति इदमसर्वशेषमशिष्याय न देयम् यो यैमोहाद्धास्यसि सपापीयान् भवति सहस्रावर्धनाद्यम् काममधीते दन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति सवाग्नी भवति चतुर्थ्यामनश्चम् जपति स विद्यावान् भवति इत्यसर्वणभाग्यम् ब्रह्माद्यावरणम् विद्यात् अभिभेदि कदा जनेति यो दूर्वाङ्गुरे विजति स वैश्वमनोतमो भवति यो राजे यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति समाक्षितफलमवाप्नोति यः साध्यस्तमिद्धर्यजति स सर्वल्लभते स सर्वल्लभते अष्टौ ब्राह्मणा सम्यक् ग्राहयित्वा सूर्यवक्षस्ते भवति सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा दत्त्वा सिद्धमन्दो भवति महाविघ्नाः प्रमुच्यते महादोषाः प्रमुच्यते महापापाः प्रमुच्यते महाप्रत्यवायाः प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति देवम् वेद इत्युपनिषत् ओम् भद्रम् कर्ण्येभिश्रमयामदेवा भद्रम् पश्ये माक्षभिर्विजत्रा चिरैरङ्गैः सुष्ठुवाघंसस्तनोभिः यजेम देवहि दैयलायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो वरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः।